आज्ञायाः अनुल्लङ्घनं लेखकः चन्द्रशेखरः कस्मिंश्चित् ग्रामे कश्चित् न्यायाधिकारी आसीत्। तस्मात् ग्रामस्य जनाः सर्वे भीताः भवन्ति स्म। तस्य आज्ञाम् उल्लङ्घ्य केनापि ग्रामात् बहिः न गन्तव्यम् इति नियमः आसीत्। तस्मिन् एव ग्रामे रामः भीमः इति द्वौ स्नेहितौ आस्ताम्। रामः कुम्भं निर्माति स्म, भीमः शवयानं निर्माति स्म। द्वौ अपि परोपकारिणौ आस्ताम्। एकदा भीमः न्यायाधिकारिणः अनुमतिं विना नगरम् आगतवान्। तस्मिन् एव समये न्यायाधिकारिणः बन्धोः गृहे काचित् वृद्धा दिवङ्गता। तदा शवयाननिर्माणार्थं भीमः न आसीत्। अतः कुपितः न्यायाधिकारी अपरस्मिन् दिने भीमम् आहूय तर्जयित्वा इतः परं मम अनुमतिं विना कुत्रापि न गन्तव्यम् इति आदिष्टवान्। अन्यस्मिन् दिने केनापि कारणेन रामेण भीमेन च नगरं गन्तव्यम् आपतितम्। अतः तौ न्यायाधिकारिणः अनुमतिं प्राप्तुं तस्य गृहं गतवन्तौ। परन्तु न्यायाधिकारी तस्य मातुः कृते औषधम् आनेतुं नगरं गतवान् आसीत्। न्यायाधिकारिणः आज्ञाम् उल्लङ्घितुम् असमर्थौ तौ बहु चिन्तितवन्तौ। अन्ततो गत्वा आवयोः अनुपस्थितौ अपि कस्यापि क्लेशः न भवेत् इति आलोच्य न्यायाधिकारिणः गृहस्य पुरतः शवायानद्वयं मृत्कुम्भद्वयं च स्थापयित्वा तौ नगरं प्रति प्रस्थितवन्तौ। यदि कस्यापि एतेषाम् आवश्यकता भवति तर्हि सः उपयोगं करोतु नाम इति चिन्तयित्वा निश्चिन्ततया तौ गतवन्तौ। अत्रान्तरे नगरं गतः न्यायाधिकारी वैद्येन सह एव ग्रामम् आगतवान्। गृहस्य पुरतः स्थितान् जनान् शवयानद्वयं च दृष्ट्वा सः कम्पितः अभवत्। मम आगमने तु विलम्बः जातः इति वदन् वैद्यः ततः एव निर्गतवान्। बहिः जनानां कोलाहलं श्रुत्वा न्यायाधिकारिणः पत्नी माता च द्वारम् उद्घाट्य दृष्टवत्यौ। ते दृष्ट्वा आश्चर्यचकितः सन् न्यायाधिकारी ततः वास्तविकपरिस्थितिं ज्ञातवान्, स्वकीयम् अविवेकं बहुधा निन्दितवान् च।